इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। केन्द्रीय आयव्यय प्रपूरक संकल्प पत्रस्य उपरि चर्चा सदनद्वये अभवत्। प्रधानमन्त्री नरेन्द्रमोदी अद्य द्रास क्षेत्रे कारगिल विजय दिवसस्य पञ्चविंशे उपलक्ष्यावसरे कारगिल युद्धस्य नायकेभ्यः श्रद्धांजलिम् अर्पितवान्। असमराज्यस्य मोइदम समूहेन सांस्कृतिक श्रेण्यां त्रिचत्वारिंशत्तमः प्रतिष्ठितः यूनेस्को विश्वनिधिस्थलस्य मान्यता प्राप्ता। श्रीलंकादेशस्य दम्बूलानगरे प्रथमे उपान्तिम चक्रीय क्रीडायां बांग्लादेशं दश क्रीडकानाम् अवशिष्टावेव पराजयित्वा भारतीय महिला क्रिकेट दलं एशिया चषकस्य स्पर्धायाः अन्तिम चक्रं प्राविशत्। अपि च अस्य वर्षस्य पेरिस ओलंपिक इति क्रीडाकुम्भः आधिकारिकतया अद्यारभ्यते। अथ वार्ताः विस्तरेण। केन्द्रीय आयव्यय प्रपूरक संकल्प पत्रस्य उपरि जायमानायां चर्चायां प्रतिभाग्यं ग्रहणन् भाजपेति दलस्य जुगल किशोरः उक्तवान् यत् संकल्प पत्रमिदं व्ययायकत्वेन महत्वधायकं तु भवत्येव सामाजिक दृष्ट्यापि महत्वपूर्णम् अस्तीति। अस्यां चर्चायां पंचायती राजमन्त्री राजीव रंजन सिंहोऽपि भागम् अभजत्, येन नरेन्द्रमोदिनः नेतृत्वधायिना प्रशासनेन उत्तमरीत्या कार्याचरणं क्रियते इति उक्तम्। अवसरेऽस्मिन् कंगना रनौतादयः नूतनाः सांसदाः अपि प्रातिभाग्यम् अकुर्वन्। प्रधानमन्त्री नरेन्द्रमोदी अद्य द्रासक्षेत्रे कारगिल विजय दिवसस्य पञ्चविंशे उपलक्ष्यावसरे कारगिल युद्धस्य नायकेभ्यः श्रद्धांजलिम् अर्पितवान्। तत्रैकां सभां च सम्बोधयन् प्रधानमन्त्री मोदी उक्तवान् यत् कारगिल विजय दिवसः अस्मान् वदति यत् राष्ट्रस्य कृते कृताः त्यागाः अमर्त्याः भवन्तीति। जम्मूकश्मीरे अद्यतन आतंकवादी आक्रमणानां विषये पाकिस्तानस्य आलोचनां कुर्वन् प्रधानमन्त्री अवदत् यत् पाकिस्तानः आतंकवादस्य क्षद्मयुद्धस्य च साहाय्येन स्वं प्रासांगिकं स्थापयितुं प्रयतते। सः अग्रे अवदत् यत् भारतीय सैनिकाः आतंकवादं पूर्णबलेन मर्दयिष्यन्ति, शत्रुभ्यः उचितं उत्तरं दीयते इति। अस्मिन् भ्रमणकाले प्रधानमन्त्री लद्दाखक्षेत्रे शिंकुनला गुहामार्ग परियोजनायाः प्रथम विस्फोटमपि करोति। शिंकुनला गुहामार्ग परियोजनायां दशमलव एकैकोत्तर चतुः किलोमीटर दीर्घा ट्यूबिन ट्यूब इति गुहामार्ग परियोजना अस्ति, यस्याः निर्माणं निमु पदुम दर्चा मार्गे प्रायः अष्टशतोत्तर पञ्चदशसहस्र फीट इति परिमितम् ऊर्ध्वतयां भविष्यति, यया लेह नगराय प्रत्यार्त्विक सम्पर्कः प्रदास्यते। प्रधानमन्त्रिणा रक्षाक्षेत्रे कृत परिष्काराणां चर्चा कुर्वता रक्षोत्पादने कृतवृद्धेः प्रशंसा कृता। तेन अग्निवीरादि योजनाम् अभिलक्ष्य यूनां दिग्भ्रमीकरणाय विपक्षस्य निन्दापि कृता। अवसरेऽस्मिन् लद्दाखस्योपराज्यपालः डॉ वीडी शर्मा, केन्द्रीय रक्षा राज्यमन्त्री संजय शेठः, सर्वसैन्यप्रमुखः जनरल अनिल चौहानः, त्रयाणाम् अपि सेनाप्रमुखाणां च उपस्थितिः आसीत्। अद्य विजयदिवसावसरे राष्ट्रपतिना रक्षामन्त्रिणा सूचना प्रसारणमन्त्रिणा सेनाप्रमुखैः अन्यैः नेतृभिश्च वीरबलिदातृभटेभ्यः श्रद्धासुमनानि समर्पितानि। अश्विनी वैष्णवेन च उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशः रक्षोत्पादनादि रक्षाक्षेत्रेषु आत्मनिर्भरतां समधिगच्छति। असमराज्यस्य मोइदम समूहेन सांस्कृतिक श्रेण्यां त्रिचत्वारिंशत्तमः प्रतिष्ठितः यूनेस्को विश्वनिधिस्थलस्य मान्यता प्राप्ता। प्रायः सप्तशतं वर्षाणि यावत् पुरातनं मोइदम इष्टकानां पाषाणानां च रिक्तकक्ष्याः सन्ति, येषु राज्ञां राजपरिवाराणां च अवशेषाः सन्ति। मोइदम इत्यस्य समावेशस्य निर्णयः सर्वसम्मत्या नवदिल्ल्याम् आयोजितेन विश्वनिधि समित्याः सत्रेण कृतः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। त्रिनवत्युत्तर त्रिशतोपग्रह दूरदर्शन प्रवाहिकाः अपलिंक डाउनलिंक इति कारणाय नीति मार्गदर्शिकायाः अन्तर्गतं सूचना प्रसारण मन्त्रालयेन अनुमताः सन्ति। एताः नैज्याः उपग्रह वार्ता प्रवाहिकाः सन्ति। राज्यसभायाम् एकस्य प्रश्नस्योत्तरे सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् एकविंशत्युत्तर द्विसहस्रतमस्य सूचना प्रौद्योगिकी नियमस्य अष्टादश नियमान्तर्गतं सप्तत्रिंशदधिकाः आंकिकीय वार्ता प्रकाशकाः सूचनां दत्तवन्तः आसनीति। रूसीय सशस्त्र सेनासु नियुक्तानां केषाञ्चन भारतीय राष्ट्रिय नागरिकाणां शीघ्र निर्गमनम् उद्दिश्य सर्वकारेण सन्त्यन्त्य अनुरोधाः प्राप्ताः। विदेशमन्त्रालयेन मॉस्को नगरीय भारतीय दूतावासेन च सम्बन्धित रूसदेशीयैः प्राधिकारिभिः सह सर्वेषाम् अनुरोधानां निस्तारणाय दृढतया सम्बोधनं कृतमस्ति। अस्मिन् मासे रूसदेशस्य भ्रमणकाले प्रधानमन्त्री नरेन्द्र मोदिना सर्वेषां भारतीयानां नागरिकाणां रूसी सशस्त्र सेनाभ्यः शीघ्रं मुक्तये तत्कालीनाम् आवश्यकताम् अभिलक्ष्य दृढतया भारतीय पक्षं स्थापितम् आसीत्। लोकसभायाम् उत्तरकाले विदेशमन्त्रालयस्य राज्यमन्त्री कीर्तिवर्धन सिंह अवदत् यत् अद्य पर्यन्तं प्रायः दश भारतीयाः नागरिकाः रूसी सशस्त्र सेनाः त्यक्तवन्तः इति। गुजरात महाराष्ट्र कोंकण गोवासु अजस्रं वृष्टिकारणात् जनजीवनं कुप्रभावितं वर्तते। भारतीय ऋतु विज्ञान विभागेन उक्तमस्ति यत् कोंकण गोवा मध्य महाराष्ट्रस्य च कतिपय भागेषु तीव्रवर्षायाः संभावना अस्ति इति। विभागेन इदमपि उक्तं यत् सौराष्ट्र कच्छ विदर्भ महाराष्ट्र वाड़ा इत्यादि क्षेत्रेष्वपि उत्कट वर्षायाः संभावना वर्तते। मध्यप्रदेशे वर्षाः भविष्यन्ति। महाराष्ट्रे तीव्रवर्षया पुणे नगरस्य जनपद नागर मार्गाः प्रभाविताः सन्ति। मुंबई नगरस्य कतिपय भागेषु जलसंचयत्वात् यातायात व्यवस्था प्रभाविता अस्ति। उपनगरीय रेल सेवापि विलम्बेन प्रचलिष्यन्ति इति। गुजरात राज्ये सूरत नवसारी बलसाड अथ दमन दादरा नगर हवेलीत्यत्र च मूसलाधार वर्षायाः संभावनात्वात् काशाई संचेतना अस्ति निस्सारिता। श्रीलंका देशस्य दम्बूला नगरे प्रथमे उपान्तिम चक्रीय क्रीडायां बांग्लादेशं दश क्रीडकानाम् अवशिष्टावेव पराजयित्वा भारतीय महिला क्रिकेट दलं एशिया कपाख्यस्य स्पर्धायाः अन्तिमचक्रं प्राविशत्। रक्षक विजेत्री दलं भारतं 54 कन्दुकानाम् अवशेषैव एकाशीति धावनांकानां लक्ष्यम् अनुसृत्य स्वस्य वर्चस्वं निर्वाहितवत्। रेणुकासिंहस्य राधायादवस्य च नेतृत्वे भारतीय कन्दुक प्रक्षेपिकाः सुनिश्चितं कृतवत्य यत् धावनांक रचयित्र्यः निश्चिततया धावनांकानां योजने सक्षमाः न भवन्त्वीति। अस्य वर्षस्य पेरिस ओलंपिक इति क्रीडाकुम्भः आधिकारिकतया अद्यारभ्यते। सायंकाले सेन नद्याः समीपे उद्घाटन समारोहः भवति। अस्मिन् वर्षे ओलंपिक क्रीडाकुम्भस्य शतवार्षिकोत्सवः भवति। ततः पूर्वं भारतेन ह्यः एव पेरिस ओलंपिक इति क्रीडाकुम्भाभियानस्य आरम्भः साफल्येन कृतः, यत्र पुरुषदलेन तृतीयस्थानं प्राप्तं, महिलादलेन च क्रमांकन परिक्रमे एव चतुर्थं स्थानं प्राप्य प्रागुपान्त्यचक्रे प्राविष्टः प्राप्तः। अपि च भारतं श्वः शूटिंग इति 10 मीटर एयर राइफल इति स्पर्धायां प्रवेशः क्रियते इति वार्ताः।